वैवस्वताख्यमनुपुत्र न भागजात न भाग नामक नरेन्द्र सुतोऽम्बरीषः सप्तार्णवामित महीदयितोऽपि रेमे त्वत्सङ्गेषु त्वयि च मग्नमनः सदैव त्वत्प्रीतये सकलमेव वितन्वतोष्य भक्त्यैव देव न चिरात् अमृताः प्रसहदम् येनास्य याचन मृतेऽप्यभिलक्षणार्थौ चक्रम् भवान् प्रवितारसः स्वधारौ सद्वादशी व्रतमतो भवदच्च न हतम् वशम् ददौ मधुवने यमुनोपकण्ठे पत्न्या समम् सुमनसा महती वितम् पूजा विजेषु विसृजन् वसुषष्टिकोटिम् तत्रात पारण दिने भवदर्चनान्ते दुर्वाससः च मुनिना भवनौ प्रपेदे भोक्तुम् घृतश्च सरूपेण परार्तिशीलो मन्दम् जगाम यमुना नियमान्विदास्या राज्ञा तपारण मुहूर्त समाप्ति खेदात् वरैव पारणमकारि भवत्परेण प्राप्तो मुनिस्तगत दिव्य दृशा विजान क्षिप्यन् क्रुदो धृत जटो वितता न कृत्याम् कृत्याम् च तामसि धराम् भुवनम् दहन्तीम् अग्रे विवीक्ष्य नृपति न पदाच्च कम्पे त्वद्भक्तबादमभिवीक्ष सुदर्शनम् ते कृत्यानलौशल भयन् मुनिमन्वदावीत् धवन्न शेष भुवनेषु भियास पश्यन् विश्वत्र चक्रमपि ते गतवान् विरिञ्चौ कः काल चक्रमतिलङ्घयतीत्यपासः सर्वम् ययौ स च भवन्तमवदतैव भूयो भवन्निलयमेत्य मुनिम् नमन्तौ प्रोचे भवानः मृषे ननु भक्तदासः ज्ञानम् तपश्च विनयानितमेव मान्यौ ह्यह्यम्बरीष पदमेव भजेति भूम तवत्समेत्य मुनिना स गृहीत पादो राजापसृत्य भवदस्त्रमसावनोषेत् चक्रे गते मुनिरदाद किलाशिषोऽस्मै त्वद्भक्तिमागसि कृतेऽपि कृपाम् च शंसा राजः प्रतीच्य मुनिमेक समामनाश्वान् सम्भोज्य साधुतम् ऋषिम् विसृजन् प्रसन्नो भुक्त्वा स्वयम् त्वयि ततोऽपि दृढम् रतोऽभूत् सयुज्यमाप च स माम् पवने शपायः